आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा. आदौ मुख्याः वार्ताः. प्रधानमन्त्री नरेन्द्र मोदी अद्य अपराह्णे गौतम बुद्ध नगर जनपदस्य जेवर क्षेत्रे नोएडा अन्ताराष्ट्रिय विमान पत्तनस्य प्रथम चरणीयोद्घाटनं विहितवान्. अद्य प्रातः विशाखापत्तनम् इत्यतः दिल्लीं प्रति आगच्छतः इंडिगो विमानस्य आपातकालीन अवतरणं देहल्याः इंदिरा गांधी अन्ताराष्ट्रिय विमानस्थानके कारितम्. नेपालस्य पूर्व प्रधानमन्त्री केपी शर्मा ओली अद्य गतवर्षस्य जेन जी आन्दोलनस्य दमन विषये निगृहीतः. पश्चिम एशिया क्षेत्रे युद्धस्य स्थितिः अतीव गभीरा वर्तते. अपि च क्रीडा वार्तासु, अद्य सायं बेंगलुरुनगरे इण्डियन प्रीमियर लीग स्पर्धायाः ऊनविंशतितमस्य संस्करणस्य शुभारम्भो भविष्यति. अथ वार्ताः विशदीकृत्य. सर्वकारः विकसित भारतस्य निर्माणार्थम् आधुनिक आधारभूत संरचनासु अभूतपूर्व निवेशं करोति इति प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रतिपादितम्. अद्य अपराह्णे तावत् गौतम बुद्ध नगर जनपदस्य जेवर क्षेत्रे नोएडा अन्ताराष्ट्रिय विमान पत्तनस्य प्रथम चरणीयोद्घाटनं विधाय प्रधानमन्त्रिणा निगदितं यत् विगत एकादश वर्षेषु आधारभूत संरचनायाः आयव्ययकं षड्गुणाधिकं प्रवर्धितम्. रेलवे विद्युतीकरणस्य विषये प्रधानमन्त्रिणा सूचितं यत् 14,200 वर्षात् पूर्वं 20,000 किलोमीटर परिमितम् आसीत् तत् अधुना 44,000 किलोमीटर मिताधिकं सञ्जातम्. साम्प्रतं प्रायः 100% ब्रॉडगेज संचालस्य विद्युतीकरणं पूर्णमभवत्. प्रधानमन्त्रिणा विशेषतः उल्लेखितं यत् प्रथमवारं कश्मीर उपत्यका तथा च उत्तरपूर्व राज्यानां राजधान्याः रेल संजालस्य माध्यमेन सम्बद्धाः भवन्ति. विगतैक दशके जलपोताश्रय क्षमता द्विगुणाधिकं प्रवर्धिता. अन्तर्देशीय जलमार्गाणां संख्या च निरन्तरं वर्धमाना वर्तते.
आज कश्मीर घाटी हो या नॉर्थ ईस्ट की राजधानियां, ये पहली बार रेल नेटवर्क से जुड़ रही है. बंदरगाहों की क्षमता बीते दशक में 2 गुने से अधिक हुई है. देश में नदी जलमार्गों की संख्या भी लगातार बढ़ रही है. विकसित भारत के निर्माण के लिए जरूरी हर क्षेत्र में भारत तेजी से काम कर रहा है.
प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रतिपादितं यत् ग्रेवर क्षेत्रे नोएडा अन्ताराष्ट्रिय विमान पत्तनस्य उद्घाटनं विकसित उत्तर प्रदेशाय विकसित भारताय च कश्चन नूतनाध्यायः वर्तते. श्रीमोदिना प्रोक्तं यत् सम्प्रति उत्तर प्रदेशः भारते सर्वाधिक अन्ताराष्ट्रिय विमान पत्तनयुतं राज्यम् अभवत्. अनेन विमान पत्तनेन आगरा, मथुरा, अलीगढ़, गाजियाबाद, इटावा, फरीदाबाद सदृशानां पश्चिमोत्तर प्रदेशस्य अनेक जनपदानां विकासो भविष्यति.
एयरपोर्ट पश्चिमी उत्तर प्रदेश के किसानों, छोटे और लघु उद्योगों, यहाँ के नौजवानों के लिए अनेक नए अवसर लेकर आने वाला. यहाँ से दुनिया के लिए विमान तो उड़ेंगे ही, साथ ही ये विकसित उत्तर प्रदेश की उड़ान का भी प्रतीक बनेगा.
श्री मोदिना प्रोदीरितं यत् पश्चिम एशिया क्षेत्रे विगत मासतः प्रवृत्त युद्धेन बहवः देशाः खाद्य पदार्थानां, तैलस्य, वातेन्धनस्य, उर्वरकानां अभावं सम्मुखीकुर्वन्ति. श्रीमोदिना प्रतिपादितं यत् यद्यपि विश्वस्य प्रत्येकोऽपि देशः अनेन संकटेन सह युध्यते, तथापि भारतं स्वनागरिकाणां सामर्थ्येन पूर्णशक्त्या अस्य संकटस्य प्रतिकारार्थं सज्जो वर्तते. अद्य प्रातः विशाखापत्तनं तः दिल्लीं प्रति आगच्छतः इंडिगो विमानस्य आपातकालीन अवतरणं दिल्ल्याः इंदिरा गांधी अन्ताराष्ट्रिय विमानस्थानके कारितम्. यतोहि एकस्मिन् प्रभागे शंका उत्पन्ना. अस्मिन् विमाने 161 प्रवासिनः आसन्. नागरिक विमानन मन्त्रालयानुसारं प्रातः पातोन एकादशवादने विमानयाने पूर्ण आपातकाल घोषितः। दिल्ली अग्निशमन सेवया प्रोदीरितं यत् सूचना अवाप्य तत्र अग्निशमन वाहनानि अपि तत्कालं प्रेषितानि, किन्तु विमानस्य कापि क्षतिः नैव अभवत्। नेपालस्य पूर्व प्रधानमन्त्री केपी शर्मा ओली अद्य गतवर्षस्य जेन्जी आन्दोलनस्य दमन विषये निगृहीतः। अवधेयं यत् बालेन्द्र शाहस्य जेन्जी आन्दोलनस्य निरीक्षणायोगस्य प्रतिवेदनानन्तरं निगडनम् अभवत्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। पश्चिम एशियाक्षेत्रे युद्धस्य स्थितिः अतीव गभीरा वर्तते। उपत्यका क्षेत्रस्य अनेकेषु भागेषु नूतन प्रक्षेपास्त्र आक्रमणानि, ड्रोन आक्रमणानि च अभवन्। एतानि आक्रमणानि तावत् रक्षाप्रणालिभिः मध्ये एव विफलीकृतानि। लेबनान देशे हिज्बुल्लाह केन्द्रेषु इज़राइल देशेन पुनः आक्रमणं विहितम्। अधिकारिभिः विज्ञापितं यत् बेरूत दक्षिणी लेबनान क्षेत्रयोः अनेके जनाः हताहताः अभवन्। प्रत्युत्तरे हिज्बुल्लाह संघटनेनापि उत्तर इज़राइल देशे निरन्तरम् आक्रमणं कृतम्। इज़राइली अधिकारिभिः पुष्टीकृतं यत् अस्मिन् संघर्षे प्रथमवारं यमन क्षेत्रादपि प्रक्षेपास्त्राणि प्रक्षिप्तानि, येन युद्धस्य भौगोलिक विस्तारस्य स्पष्टः संकेतः प्राप्यते। प्रधानमन्त्री वरिष्ठ भाजपा नेता च नरेन्द्र मोदी अस्य मासस्य 30 दिनांके नमो तन्त्रांशेन मेरा बूथ सबसे मजबूत संवाद कार्यक्रमे असम पुदुचेरी राज्ययोः कार्यकर्तृन् सम्बोधयिष्यति। सामाजिकान्तर्जालीय पटलस्य एकस्मिन् सन्देशे मोदी न्यगादीत् यत् विगत दशके असम राज्यस्य प्रगतिः सर्वेषां पुरतः स्पष्टा अस्ति, राज्यं च सर्वक्षेत्रेषु विकासपथि अस्ति। तेन अवलोकितं यत् निरन्तर विकास कार्याणां कारणात् जनाः पुनः पञ्चवर्षाणां कृते डबल इंजन एनडीए प्रशासनं चेतुं सज्जाः सन्ति। श्वः प्रातः 11 प्रधानमन्त्री नरेन्द्र मोदी आकाशवाण्या मन की बात इति कार्यक्रमावधौ स्वीयं मनोगतं देशस्य विदेशस्य च जनैः समं विनिमयीकरिष्यति। अयं हि अस्य लोकप्रिय कार्यक्रमस्य 32nd भागो भविष्यति। अस्य प्रसारणम् आकाशवाण्याः, दूरदर्शनस्य च सर्वेषु केन्द्रेषु, एआईआर न्यूज अन्तर्जालपुटे तथैव न्यूज ऑन एआईआर दूरभाषतन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेता केन्द्रीय गृहमन्त्री अमित शाहः अद्य पश्चिमबंगे ममता बैनर्जी इत्यस्याः नेतृत्वयुतस्य तृणमूल कांग्रेस सर्वकारस्य उपरि सुरक्षायाम् अनवधानस्य सहैव राज्यस्य आर्थिक दुर्दशायाः गभीरम् आरोपं प्रक्षिप्तवान्। शाहः प्रतिपादितवान् यत् तस्याः अवैध प्रवासिभ्यः तुष्टीकरणनीतेः कारणात् पश्चिमबंगस्य श्रमिकाः अल्पं वेतनम् अवाप्नुवन्ति, अस्मात् कारणात् तेषां स्थितिः दयनीया वर्तते। अमितशाहः अद्य कोलकातायां जनोगोनर चार्जशीट इति कार्यक्रमे सम्मिलितवान्। तत्र तेन एकः अभिलेखः विमुक्तः यस्मिन् तृणमूल कांग्रेस सर्वकारस्य 15 दमनं कुशासनञ्च प्रकाशितम्। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः अद्य अब्रवीत् यत् विश्व व्यापार संघटने उरुग्वे चक्र इत्यावधौ निर्मितानां विसंगतीनां निवारणं चर्चायाः प्रमुख विषयो भवेत्। अद्य सायं बेंगलुरुनगरे इण्डियन प्रीमियर लीग स्पर्धायाः 29th संस्करणस्य शुभारम्भो भविष्यति। उद्घाटन क्रीडायां गतवर्षस्य विजेता रॉयल चैलेंजर्स बेंगलुरु दलम् एम चितम्बरम क्रीडांगणे सनराइज हैदराबाद दलेन सह स्पर्धिष्यते। क्रीडेयं सायंकाले 7:30 आरप्स्यते। इति वार्ताः।